एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। रसुवा जनपदे भोटेकोशी नद्याम् दुरापन्नस्य विनाशकारिणः जलविप्लवस्य कारणेन अधुनावधि एकोनसप्तत्यधिक पञ्चशतस्य जनानाम् सभाः प्राप्ताः सन्तीति राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितम् वर्तते। प्राधिकरणस्य अनुसारेण रसुवा जनपदे द्वादश, नुवाकोट जनपदे सप्तत्रिंशद्, धादिङ जनपदे चत्वारिंशद्, गोरखा जनपदे षट्चत्वारिंशद्, नवलपरासी पूर्व जनपदे चतुःपञ्चाशदधिकैक शतम्, चितवन जनपदे त्रयस्त्रिंशदधिक शतद्वयम्, तनहु जनपदे त्रिंशद, नवलपरासी पश्चिम जनपदे सप्तविंशतिश्च सभाः प्राप्ताः वर्तन्ते। दुर्घटनायां जलप्लवे निपत्य सहस्रं चतुर्विंशत्यधिक नवशतं च जनाः सम्पर्कविहीनाः सन्ति। तत्र नेपाल प्रहरिण अष्टाविंशतिः, नेपाली सेनायाः पञ्चचत्वारिंशद्, सशस्त्र प्रहरी बल नेपालस्य त्रयोदश, सीमा प्रवेश शुल्क कार्यालयस्य पञ्चदश, अध्यागमन कार्यालयस्य पञ्चदश, रसुवा जनपदे एकषष्ट्यधिकैक शतम्, नुवाकोट जनपदे एक, जलविद्युत दायोजनासु क्रियारताः त्रयस्त्रिंशदधिक नवशतम् च, मकवानपुर जनपदे षट्षष्टिश्च जनाः सम्पर्कविहीनाः सन्तीति प्राधिकरणेन ज्ञापितम् वर्तते। एवमेव वैदेशिक नागरिकाः सप्तदशाधिक पञ्चशतम्, नेपालस्य भ्रमणाय आगताः आवासीयतर सप्त विंशत्यधिकैक शतम् नेपालिनः, लाङटाङ राष्ट्रिय निकुञ्जे क्रियारताः त्रयश्च जनाः सम्पर्कविहीनाः सन्ति। तत्र जलविप्लव प्रभावितेभ्य क्षेत्रेभ्य अधुनावधि सहस्रचतुष्टयम् एकपञ्चाशदधिक शतचतुष्टयञ्च जनाः उद्धारा उद्धृताः वर्तन्ते। एवमेव एकोनत्रिंशदधिकैक शतम् वैदेशिक नागरिकाः उद्धृताः सन्ति। सर्वकारेण रसुवा जनपदस्य भोटेकोशी नद्याः जलविप्लवेन प्रभावितेषु जनपदेषु प्राप्त क्षतीनाम् व्यक्तिनाम् व्यावसायिक संस्थानाम् च कृते सौविध्यपूर्ण सहयोगस्य कृते पुनस्थापनायाश्च कृते सहयोग प्रारूपम् निर्मातुम् अर्थमन्त्रालयः निर्दिष्टो वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन गत बुधवासरस्य जलविप्लवेन प्रभावितानां व्यक्तिनां व्यावसायिक संस्थानां च कृते सहयोग प्रारूपं निर्माय प्रस्तोतुम् अर्थमन्त्रालयः निर्दिष्टोऽस्तीति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः असूचयत्। एवमेव उपवेशेन प्रधानमन्त्री दैवी प्रकोपोद्धार कोषे प्रधानमन्त्रिणः एवं मन्त्रिपरिषदः सर्वविधा सदस्यानाम् एकमासस्य पारिश्रमिकं संकलयितुं निर्णीतं वर्तते। मन्त्रिपरिषदः ह्यस्तनेन उपवेशेन भारतदेशात् प्रत्यक्ष व्यवसायस्य माध्यमेन पञ्चविंशति सहस्र मेट्रिक टन परिमितं रासायनिक कृषिमलं क्रेतुं कृषि सामग्री कम्पनी लिमिटेड संस्थानाय सैद्धान्तिक स्वीकृतिं प्रदातुं निर्णीतं वर्तते। भोटेकौशिकी नद्याः जलविप्लवस्य कारणेन मार्ग सञ्जालाद् विच्छिन्न रसुवा जनपदः पुनः मार्ग सञ्जालेन सह योजितो वर्तते। मार्ग विभागस्य प्रवक्ता शुभराज न्यौपाने काष्ठमण्डप टोखा छरे गंखार पुल आप्र नज्जा लप्च्याङ सरमथली पाटी खर्क मार्गेण बोगटी टार कालिकास्थान धुन्चे मार्गखण्ड सञ्चालने आगतोस्तीति असूचयत्। मार्गखण्डे आवश्यक सम्भारस्य मार्गावरोधस्य अपाकरणस्य च पश्चात् सम्प्रति लघ्वाकारक यातायात साधनानां सञ्चालनस्य अवस्था सम्भूतास्ति। मार्गम् अतिरिक्तं सहजं विधातुम् अतिरिक्तं कार्यं जायमानं च वर्तते इति विभागेन ज्ञापितम् अस्ति। मार्गस्य सञ्चालनस्य पश्चात् जनपदे अत्यावश्यक सामग्रीणाम् परिवहनस्य कार्यम् उद्धार सहयोग कार्यम् च सहजे भविष्यत इति अपेक्षितमस्ति। मार्गखण्डेऽस्मिन् यातायात साधनानाम् सञ्चालनम् प्रारब्धम् सदपि अधुनापि विद्यमान एव अस्तित्यतः यातायात साधनानाम् सञ्चालने आवश्यक सावधानताम् अवलम्बितुम् विभागेन सर्वे अनुरुद्धाः वर्तन्ते। भोटे कोशिकी नदीतः त्रिशूली नद्याम् दुरापन्नस्य जलविप्लवस्य कारणेन अवरुद्धः पृथ्वी राजमार्गः सञ्चालितो वर्तते। काष्ठमण्डपोपत्यका यातायात व्यवस्थापन प्रहरी कार्यालयस्य अनुसारेण राजमार्गेऽस्मिन् एकीभूतस्य पंकजातस्य अपसारणस्य पश्चात् ह्यः सायंकालाद् मार्गः सञ्चालितो वर्तते। कार्यालयस्य प्रवक्ता प्रहरीपरीक्षकः नरेशराज सुवेदी मार्गस्य सञ्चालनेन सहैव राजमार्गे अवरुद्धानाम् यातायात साधनानाम् सुरक्षितरूपेण गन्तव्यस्थानम् प्रति प्रेषणस्य कार्यम् प्रारब्धम् अस्तीति असूचयत्। एवमेव अद्य प्रातःकालात् काष्ठमण्डपात् सार्वजनिक यातायात साधनानि उपत्यकातः बहिः प्रेषयितुम् प्रारब्धम् वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन जलविप्लव पीडितानाम् जनानाम् नामनि अनधिकृतरूपेण सहयोग वित्तम् न संकलयितुम् अनुरुद्धम् वदति। भोटे कौशिकी नद्याः जलविप्लवेन प्रभावितानाम् नागरिकाणाम् उद्धार सहयोग पुनस्थापनानाम् कृते विभिन्न क्षेत्रैः आर्थिक सहयोगस्य नाम्नि व्यक्ति समूह संस्थाभिः स्वेच्छाचारितया वित्तस्य संकलनम् विधीयमानमस्तीति वेदनायाः प्राप्ते पश्चात् प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन तथा न कर्तुम् सम्बद्धपक्षाः अनुरुद्धाः निर्दिष्टाश्च वर्तन्ते तथा अकरणे दण्डयितुम् च प्रत्यादिष्टम् अस्ति। जलविप्लवेन पीडितानाम् जनानाम् सहयोगार्थम् विभिन्न प्रदेशैः सहयोग वित्तस्य घोषणा विहितास्ति। तत्र गण्डकी प्रदेश सर्वकारेण कोटि चतुष्टयम् रूप्यकाणि, लुम्बिनी प्रदेश सर्वकारेण कोटि त्रयम् रूप्यकाणि, सुदूर पश्चिम प्रदेश सर्वकारेण कोटि द्वयम् रूप्यकाणि च प्रधानमन्त्री दैवी प्रकोपोद्धार सहयोग कोषे संकलयितुम् निर्णीतम् वर्तते। काष्ठमण्डपोपत्यकायाम् राष्ट्रस्य विभिन्न भागेषु च नेवार समुदायस्य जनैः गाईजात्रेति पारम्परिकम् गोयात्रा सांस्कृतिक पर्व अद्य समायोज्यमानमस्ति। भाद्रकृष्णपक्षस्य प्रतिपत्तिथिता प्रारभ्य अष्टौ दिवसान् यावत् समायोज्यमाने अस्मिन् उत्सवे वर्षस्य अभ्यन्तरे मृतानाम् पारिवारिक सदस्यानाम् स्मृतौ जनाः प्रतीकात्मकरूपेण नरम् गाम वा विभूष्य नगरम् परिभ्रामयन्ति। स्वम् गोस्वरूपेण प्रस्तुत्य नगरे परिभ्रमिते सति वैतरणीम् तर्तुम् शक्यते इति धार्मिक पृष्ठभूमेः आधारः अत्र प्रथितोऽस्ति। अस्मिन् अवसरे फल पुष्प दधि चिपीटकान्नानि प्रदीयन्ते, राक्षस नृत्यञ्च प्रदर्श्यते। मल्लराजेन प्रताप मल्लेन पुत्र शोकेन विह्वलाम् स्वकीय महिषीम् सान्त्वयितुम् एवंविधः शोकः अन्यै अपि अनुभूतो वर्तते इति प्रदर्शयितुम् प्रत्येकम् मृतक गृहात् गोयात्रा प्रदर्शनस्य व्यवस्थाम् वद्वा राजप्रासादस्य प्राङ्गणे जनसमवायान् एकीकृत्य राज्ञै यात्रा प्रदर्शिता। अस्मत्कर्मणापि अनपरितशोकाम् देवीम् ज्ञात्वा प्रहसन कार्यक्रमम् च समावेश्य गोयात्रायाः आयोजनार्थम् राजाज्ञा प्रसारिता तथा यात्रेयम् प्रचलिता स्थिति विश्वस्यते इति समाचाराः।